ओम नमो भगवते वासुदेवाय। अथ षष्ठोऽध्यायः। मैत्रेय उवाच। अथ देवगणाः सर्वे रुद्रानीकैः पराजिताः। शूलपर्युषनिस्त्रिंश गदापरिघमुद्गरैः सञ्छिन्नभिन्न सर्वाङ्गाः सर्त्विक्सभ्याभयाकुलाः स्वयम्भुवे नमस्कृत्य काठिन्येनैतन्यवेदयन् उपलभ्य पुरैवेतद्भगवानब्जसम्भवः। नारायणश्च विश्वात्मा न कस्याद्वरमीयतुः। तदा कर्ण्यविभुः प्राह तेजीयसी कृतागसि क्षेमाय तत्र सा भूयान्न प्रायेण बभूषताम्। अथापि यूयम् कृतकिल्बिषाभवम् ये बर्हिषो भागभाजम् परादुः। प्रसादयध्वम् परिशुद्धचेतसा क्षिप्रप्रसादम् प्रगृहीताङ्घ्रिपद्मम्। आशासानाजीवितमध्वरस्य लोकः सपालः कुपितेन यस्मिन् तमाशुदेवम् प्रियाविहीनम् क्षमापयध्वम् हृदि विद्धम् दुरुक्तैः। नाहम् न यज्ञो न च यूयमन्ये ये देहभाजो मुनयश्च तत्त्वम् विदुः प्रमाणम् बलवीर्ययोर्वा यस्यात्मतन्त्रस्य क उपायम् विधित्सेत्। स इत्थमादिश्य सुरानजस्तैः समन्वितपितृभिः सप्रदेशैः ययौ स्वधिष्ण्यान्निलयम् पुरद्विषः कैलासमद्रिप्रवरम् प्रियम् प्रभोः। जन्मौषधितपोमन्त्रयोगसिद्धैर्नरेतरैः जुष्टम् किन्नरगन्धर्वैरप्सरोभिर्वृतम् सदा नानामणिमयैः शृङ्गैर्नानाधातुविचित्रितैः नानाद्रुमलता गुल्मैर्नानामृगगणावृतैः नानामलप्रस्रवणैर्नानाकन्दरसानुभिः रमणम् विहरन्तीनाम् रमणैः सिद्धयोषिताम् मयूरकेकाभिरुतम् मदान्धालिविमूर्च्छितम् प्लावितैरक्तकण्ठानाम् कूजितैश्च पदत्रिणाम्। आह्वयन्तमिवोद्धस्तैर्द्विजान् कामदुघैर्द्रुमैः व्रजन्तमिव मातङ्गैर्गृणन्तमिव निर्झरैः मन्दारैः पारिजातैश्च सरलैश्चोपशोभितम् तमालैः शालतालैश्च कोविदारासनार्जुनैः सूतैः कदम्बैर्नीपैश्च नागपुन्नागचम्पकैः पाटलाशोकबकुलैः कुन्दैः कुरबकैरपि स्वर्णार्णशतपत्रैश्च वररेणुकजातिभिः कुब्जकैर्मल्लिकाभिश्च माधवीभिश्च मण्डितम् पनसोदुम्बराश्वत्थप्लक्षण्यग्रोधहिङ्गुभिः भूर्जैरौषधिभिः पूगैराजपूगैश्च जम्बुभिः खर्जूराम्रातकाम्राद्यैः प्रियालमधुकेङ्गुदैः द्रुमजातिभिरन्यैश्च राजितम् वेणुकीचकैः कुमुदोत्पलकल्लारशतपत्रवनर्धिभिः नलिनीशुकलम् कूजत्खगवृन्दोपशोभितम् मृगैः शाखामृगैः क्रोडैर्मृगेन्द्रैर्वृक्षशल्यकैः गवयैः शरभैर्व्याघ्रैः रुरुभिर्महिषादिभिः कर्णान्त्रैकपदाश्वास्यैर्निर्जुष्टम् मृकनाभिभिः कदलीखण्डसमृद्धनलिनीपुलिनश्रियम् पर्यस्तम् नन्दया सत्याः स्नानपुण्यतरोदया विलोक्यभूतेश गिरिम् विबुधा विस्मयम् ययुः। ददृशुस्तत्र ते रम्यामलकाम् नाम वैपुरीम् वनम् सौगन्धिकम् चापि यत्र तन्नाम पङ्कजम् नन्दाचालकनन्दा च सरितौ बाह्यतः पुरः तीर्थपादपदाम्भोजरजसातीव पावने ययोऽसुरस्त्रियक्षत्तरवरुह्य स्वधिष्ण्यतः क्रीडन्ति पुंस सिञ्चन्त्यो विगाह्यरतिकर्षिताः ययोस्तत्स्नानविभ्रष्टनवकुङ्कुमपिञ्जरम् वितृषोऽपि पिबन्त्यम्भः पाययन्तो गजागजीः तारहेम महारत्नविमानशतसङ्कुलाम् जुष्टाम् पुण्यजनस्त्रीभिर्यथाखम् सतडिद्घनम् हित्वा यक्षेश्वरपुरीम् वनम् सौगन्धिकम् च तत् द्रुमैकामदुगैरृद्यम् चित्रमाल्यफलच्छदैः रक्तकण्ठखगानीकस्वरमण्डितषट्पदम् कलहंसकुलप्रेष्ठम् खरदण्डजलाशयम् वनकुञ्जरसङ्घृष्टहरिचन्दनवायुना अधिपुण्यजनस्त्रीणाम् मुहुरुन्मथयन्मनः वैदूर्यकृतसोपाना वाप्य उत्पलमालिनीः प्राप्ताः किम् पुरुषैर्दृष्ट्वा त आराद्रदृशुर्वटम् सयोजनशतोत्सेधः पादो न विटपायतः पर्यकृताचलच्छायो निर्नीडस्तापवर्जितः तस्मिन् महायोगमये मुमुक्षुशरणे सुराः ददृशुः शिवमासीनम् त्यक्तामर्षमिवान्तकम् सनन्दनाद्यैर्महासिद्धैः शान्तैः शान्तविग्रहम् उपास्यमानम् सख्या च भर्त्रा गुह्यकरक्षसाम् विद्यातपो योगपथमास्थितम् तमधीश्वरम् चरन्तं विश्वसुहृदं वात्सल्याल्लोकमङ्गलम् लिङ्गं च तापसाभीष्टं भस्मदण्डजटाजिनम् अङ्गेन सन्ध्याभ्ररुचा चन्द्रलेखां च बिभ्रतम् उपविष्टं दर्भमय्यां वृष्यां ब्रह्मसनातनम् नारदाय प्रवोचन्तं पृच्छते शृण्वतां सतां कृत्वोरौ दक्षिणे सव्यं पादपद्मं च जानुनि बाहुं प्रकोष्ठे क्षमालामासीनं तर्कमुद्रया तं ब्रह्मनिर्वाणसमाधिमाश्रितं व्युपाश्रितं गिरिशं योगकक्षाम् स लोकपाला मुनयो मनूनामाद्यं मनुं प्राञ्जलयः प्रणेमुः स तूपलभ्या गतमात्मयोनिं सुरासुरैशैरभिवन्दितां गृहि उत्थाय चक्रे शिरसाभिवन्दनमर्हत्तमः कस्य यथैव विष्णुः तथा परे सिद्धगणा महर्षिभिर्ये वै समन्तादनुनीललोहितम् नमस्कृतः प्राह शशाङ्कशेखरं कृतप्रणामं प्रहसन्निवात्मभूः ब्रह्मोवाच जाने त्वामीशं विश्वस्य जगतो योनिबीजयोः शक्ते शिवस्य च परं यत्तद्ब्रह्म निरन्तरं त्वमेव भगवन्नेतच्छिवशक्त्योः सरूपयोः विश्वं सृजसि पास्यत्सि क्रीडन्नूर्णपटो यथा त्वमेव धर्मार्थदुगाभिपत्तये दक्षेण सूत्रेण ससर्जिताध्वरम् त्वयैव लोके वसिताश्च सेतवो यान् ब्राह्मणा शद्दधते धृतव्रताः त्वं कर्मणां मङ्गलमङ्गलानां कर्तुः स्म लोकं तनुषे स्वः परं वा अमङ्गलानां च तमिश्रमुल्बणं विपर्ययः केन तदेव कस्यचित् न वै सतां त्वच्चरणार्पितात्मनां भूतेषु सर्वेष्वभिपश्यतां तव भूतानि चात्मन्यपृथग्दिदृक्षतां प्रायेण रोषोऽभिभवेद्यथा पशुम् पृथग् धियः कर्मदृशो दुराशया परोदयेनार्पितहृद्रुजोनिशम् परान्दुरुक्तैर्वितुदन्त्यरुन्तुदास्तान्मावधीद्दैववधान् भवद्विधः यस्मिन् यदा पुष्करणाभमायया दुरन्तया स्पृष्टधियः पृथग् दृशः कुर्वन्ति तत्र यनुकम्पया कृपां न साधवो दैवबलात्कृते क्रमम् भवान् स्तुपुंस परमस्य मायया दुरन्तया स्पृष्टमतिः समस्तदृक् तया हतात्मस्वनुकर्मचेतः स्वनुग्रहं कर्तुमिहार्हसि प्रभो कुर्वध्वरस्योद्धरणं हतस्य भोस्त्वया समाप्तस्य मनो प्रजापतेः न यत्र भागं तव भागिनो ददुः कुयज्विनो येन मखो निनीयते जीवताद्यजमानोऽयं प्रपद्येताक्षिणी भगः मृगोस्मश्रूणिरोहन्तु पूष्णो दन्ताश्च पूर्ववत् देवानां भग्नगात्राणां ऋत्विजां चायुधास्मभिः भवतानुगृहीतानामासुमन्योस्त्वनातुरम् एष ते रुद्रभागोऽस्तु यदुच्छिष्टोऽध्वरस्य वै यज्ञस्ते रुद्रभागेन कल्पतामद्य यज्ञहन् ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे रुद्रसान्त्वनं नाम षष्ठोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी।